इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दीपकः सोलंकी। आदौ मुख्य वार्ताः। प्रधानमंत्री नरेन्द्र मोदी उत्तराखण्डे अर्थव्यवस्थां सुदृढं कर्तुं यूनां कृते वृत्त्यावसरान् सृजनाय च आवर्षं यावत् पर्यटनस्य प्रचारं कर्तुं बलं प्रदत्तवान्। भारतदेशेन विदेशमंत्री डॉक्टर सुब्रमण्यम जयशंकरस्य यूनाइटेड किंगडम देशस्य यात्रावधौ उग्रवादिभिः विहिते सुरक्षा व्यवस्था व्यवधानस्य निन्दा कृता। उक्तं च यत् आतिथेय सर्वकारः स्वस्य कूटनीतिक दायित्वानां निर्वहनं पूर्ण प्रतिबद्धतया कुर्यात्। बब्बर खालसा इंटरनेशनल BKI ISI चेत्येतयोः सक्रियः आतंकवादी लाजर मसीहः इति उत्तर प्रदेश विशिष्ट कार्यदलेन पंजाबी आरक्षी दलेन च संयुक्ताभियाने निगडितः। अपि च भारत ऋतु विज्ञान विभागेन अद्य दिल्लीं समेत्य उत्तर पश्चिम भारतस्य भूक्षेत्रेषु प्रचंड वायु प्रवाहस्य पूर्वानुमानं कृतम्। अथ वार्ताः विस्तरेण। प्रधानमंत्री नरेन्द्र मोदी उत्तराखण्डे अर्थव्यवस्थां सुदृढं कर्तुं यूनां कृते वृत्त्यावसरान् सृजनाय च आवर्षं यावत् पर्यटनस्य प्रचारं कर्तुं बलं दत्तवान्। अद्य राज्यस्य उत्तरकाशी मण्डलस्य हर्सिल इत्यत्र जनसभां सम्बोधयन् श्रीमोदी राज्ये पर्यटन क्षेत्राणां विविधीकरणस्य आवश्यकतायां बलं प्रददता। जनान् आहूतवान् यत् ते शरदृतौ उत्तराखण्डस्य भ्रमणं कुर्वन्तु। प्रधानमन्त्रिणा उक्तं यत् सुरम्य पर्वतयुक्त राज्ये अपर्यटन ऋतुः न भवेत्। सः अवदत् यत् एतेन आगन्तुकाः राज्यस्य दिव्यदृश्यानाम् अनुभवं कर्तुं शक्नुवन्ति।
विंटर टूरिज्म में यहाँ लोगों को ट्रैकिंग, स्कीइंग जैसी एक्टिविटीज का रोमांच सचमुच में रोमांचित कर देगा। धार्मिक यात्रा के लिए भी उत्तराखंड में सर्दियों का समय बेहद खास होता है। कई तीर्थ स्थलों पर इसी समय विशेष अनुष्ठान भी होते हैं। इसलिए उत्तराखंड सरकार का 12-मासी पर्यटन का विजन लोगों को दिव्य अनुभूतियों से जुड़ने का अवसर देगा।
राज्यस्य शरदः सौन्दर्यं प्रकाशयन् प्रधानमंत्री मोदी अवदत् यत् अस्मिन् ऋतौ रिक्तानि आवास गृहाणि आर्थिक असंतुलनं जनयन्ति। यद्यपि शरत्कालः उत्तराखण्डस्य यथार्थं सौन्दर्यं प्रदर्शयति।
उत्तराखण्ड के विकास के लिए जो संकल्प हमने लिए थे वो संकल्प आज पूरे हो रहे हैं। इसी दिशा में शीतकालीन पर्यटन एक और बड़ा महत्वपूर्ण बड़ा कदम है। इसके माध्यम से उत्तराखंड के आर्थिक सामर्थ्य को साकार करने में बहुत बड़ी मदद मिलेगी।
प्रधानमन्त्रिणा राज्याय अनुमोदितानां प्रमुखानां आधारभूत संरचना परियोजनानां च उल्लेखम् अपि कृता। श्रीमोदी उत्तराखण्डे विवाहानां कृते गन्तव्यस्थानत्वेन प्रचारयितुम् उक्तवान्। स्मरणीय उत्सवानां कृते एतत् सम्यक् स्थानम् इति उक्तवान्। अद्य प्रातःकाले श्रीमोदी उत्तराखण्डस्य एक दिवसीय यात्रायाम् उत्तरकाशीं सम्प्राप्तवान् आसीत्। ततः पूर्वं प्रधानमन्त्रिणा पर्यटन प्रवर्धनाय स्थानीय अर्थव्यवस्थायाम् उन्नयनाय च प्रयत्नस्य भागरूपेण हर्सिल नगरे पदद्विचक्रिका यात्रायै हरितध्वज प्रदर्शनं कृतः। सः उत्तरकाशी मण्डले गंगादेव्याः शरद निवासस्थाने मुखवा मन्दिरे पूजार्चनां च कृतवान्। तेलंगाना राज्ये सद्य एव सम्पन्ने विधान परिषद निर्वाचने भाजपेति दलाय अद्भुत समर्थनस्य च कृते प्रधानमन्त्रिणा नरेन्द्र मोदिना तेलंगाना राज्यस्य जनानां धन्यवादः कृतः। एकस्मिन् सामाजिक अन्तर्जालीय सन्देशे श्रीमोदी स्वदलस्य कार्यकर्तृणाम् अपि प्रशंसाम् अकरोत् यत् ते जनानां मध्ये महता परिश्रमेण कार्यं कृतवन्तः। भाजपेति दलेन तेलंगानायां विधान परिषदः निर्वाचने त्रिषु आसनेषु द्वे आसने विजिते। अन्यस्मिन् सन्देशे प्रधानमन्त्रिणा आन्ध्रप्रदेश स्थानक MLC निर्वाचने NDA अभ्यर्थिनां विजयस्य प्रशंसां कृता। आन्ध्रप्रदेशे विजित्रिषु प्रत्याशिषु एनडीए संयुतेः स्नातक एमएलसी निर्वाचने ए राजेन्द्रप्रसादः पी राजशेखरं च विजितवन्तौ। तत्रैव शिक्षकक्षेत्रस्य एमएलसी निर्वाचने एकः निर्दलीयः प्रत्याशी विजितवान्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतदेशेन विदेशमन्त्री डॉ. सुब्रह्मण्यम् जयशंकरस्य युनाइटेड किंगडम देशस्य यात्रावधौ पृथक्तावादिभिः उग्रवादिभिः विहिते सुरक्षाव्यवस्था व्यवधानस्य निन्दा कृता। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् कार्यमिदं पृथक्तावादिनाम् उग्रवादिनां च एकस्य लघुसमूहस्य प्रोत्तेजनाकारी कार्यम् अस्ति। भारतदेशेन कार्यमिदं निन्दितम् उक्तं च यत् एतानि कार्याणि अराजकतत्त्वानां द्वारा लोकतान्त्रिकस्वतन्त्रतायाः दुरुपयोगरूपेण भवन्ति। विदेशमन्त्रालयेन इतोपि उक्तं यत् एतेषु सन्दर्भेषु आतिथेयसर्वकारः स्वस्य कूटनीतिकदायित्वानां निर्वहनं पूर्णप्रतिबद्धतया कुर्यात्। डॉ. जयशंकरः षड्दिवसीया यात्रायां युनाइटेड किंगडम देशे आयरलैंड देशे च अस्ति। गतदिवसे विदेशमन्त्री लंदन नगरे चैथम हाउस इति स्थाने स्थितस्य ब्रिटेन देशीयः मन्त्रणा समूहस्य एकस्मिन् सत्रे भारतस्य उदयः विश्वे अस्य भूमिका इत्यस्मिन् विषये भाषणं विहितवान्। अस्मिन् सत्रे श्री जयशंकरः उक्तवान् यत् अमेरिका देशस्य राष्ट्रपति डोनाल्ड ट्रम्पस्य नेतृत्वे निवर्तमान विश्वः बहुध्रुवीयतां प्रति प्रगच्छन् अस्ति, यत् भारतस्य हिताय उपयुक्तम् अस्ति इति। भारत ऋतुविज्ञान विभागेन अद्य दिल्लीं समेत्य उत्तर पश्चिम भारतस्य भूक्षेत्रेषु प्रचंड वायु प्रवाहस्य पूर्वानुमानं कृतम्। वायोः प्रवाहः 25 35 किलोमीटर प्रतिहोरा यावत् भविष्यति इति विभागेनोक्तम्। तत्रैव अरुणाचल प्रदेशे, असम राज्ये अद्य, श्वः च नागालैंड राज्ये तडिज्झंझावृष्टेः हिमपातस्य च स्थिति भवितुं शक्नोति। श्रम रोजगार मंत्री डॉ. मनसुख मांडविया स्वस्थ अथ पुष्ट भारतस्य निर्माणे निवारक चिकित्सायाः प्रोत्साहक चिकित्सायाः च संयुतायाः स्वास्थ्य सेवायाः महत्वं प्रतिपादितवान्। सः चरकः, सुश्रुतः, धनवंतरी चेत्यादिनां भारतीय चिकित्सा प्रवर्तकानां ज्ञानम् उद्धृत्य देशस्य समृद्ध स्वास्थ्य सेवाया परंपरां उद्घाटितवान्। डॉ. मांडविया हरियाणा राज्यस्य फरीदाबाद नगरे स्वास्थ्य समस्याः तथा स्वस्थ जीवन शैल्याः विषये चर्चा सत्रम् अभी संबोधनं कुर्वन् एतत् उक्तवान्। अद्य प्रवर्तन निदेशालयेन अवैध धनशोधन गवेषणायाः भागरूपे सोशल डेमोक्रेटिक पार्टी ऑफ इंडिया SDPI इत्यस्य संबंधस्य विभिन्नेषु स्थानेषु अन्वेषणाभियानं विहितम्। निदेशालयेन एतानि अन्वेषणाभियानानि SDPI इत्यस्य नवदिल्ली, केरल, कर्नाटक, आंध्रप्रदेश, उत्तरप्रदेश, राजस्थान चेत्येतेषु स्थितेषु मुख्यालयेषु विहितानि। राष्ट्रपति द्रौपदी मुर्मू शनिवासरे नवदिल्ली नगरे अन्ताराष्ट्रिय महिला दिवसस्य उपलक्ष्ये राष्ट्रिया संगोष्ठ्याः उद्घाटनं करिष्यति। एषा संगोष्ठी नारी शक्त्याः विकसित भारतम् इत्याख्ये विषये महिला बाल विकास मंत्रालय द्वारा आयोजिता। अन्ताराष्ट्रिय महिला दिवसः अखिलेऽपि विश्वे मार्च मासस्य 8 आमान्यते। अस्मिन् दिवसे राष्ट्रिया जातीया सांस्कृति सीमभ्यः अवलंघ्य महिलायाः उपलब्धिनाम् उत्सवः आमान्यते इति वार्ताः।